ॐ बह्वीः कोटिरटेकः कुटिलकटुमतेनुत्कटाटोपकोपान्द्राक्ष त्वं सत्वरत्वाच्छरणदगदया पोथयामासिथारीन् उन्मथ्या तथ्यमिथ्या त्ववचनवचनान् उत्पथस्थांस्तथान्यान् प्रायच्छस्वप्रियायै प्रियतमकुसुमं प्राणतस्मै नमस्ते ॐ ॐ देहादुत्क्रामितानामधिपतिरसतामक्रमाद्वक्रबुद्धिः क्रुद्धक्रोधैकवश्यक्रमुरिवमणिमान् दुष्कृते निष्क्रियार्थम् चक्रे भूचक्रमेत्यक्रकचमिव सतां चेतसकष्टशास्त्रम् दुस्तर्कं चक्रपाणेर्गुणगणविरहं जीवतां चाधिकृत्य ॐ ॐ तद्दुष्प्रेक्षानुसारात् कतिपयकुनरैरादृतोऽन्यैर्विसृष्टो ब्रह्माहं निर्गुणोऽहं वितथमिदमिति ह्येष पाषण्डवादः तद्युक्त्या भासजालप्रसरविशतरोद्दाहदक्षप्रमाणज्वालामालाधरोऽग्निः पवनविजयते देवतारस्तृतीयः ॐ ॐ आक्रोशन्तो निराशा भयभरविवशस्वाशयाः छिन्नदर्पाः वाशन्तो देशनाशस्त्वितिबतकुधियां नाशमाशादशाशु धावन्तोऽश्लीलशीला वितथशपथशापाशिवाशान्तशौर्याः तद्व्याख्या सिंहनादे सपदि ददृशिरे मायि गोमायवस्ते ॐ ॐ त्रिष्वप्येवावतारेश्वरिभिरपघृणं हिंसितो निर्विकारः सर्वज्ञः सर्वशक्तिः सकलगुणगणापूर्णरूपप्रगल्भः स्वच्छः स्वच्छन्दमृत्युः सुखयसि सुजनं देव किञ्चित्रमत्र त्राता यस्य त्रिधाम जगदुतवशगं किङ्कराः शङ्कराद्याः ॐ ॐ उद्यन्मन्दस्मितश्रीमृदुमधुमधुरालापपीयूषधारा पूरासेकोपशान्ता सुखसुजनमनोलोचनापीयमानम् संद्रक्ष्ये सुन्दरं संदुहदिह महदानन्दमानन्दतीर्थ श्रीमद्वक्त्रेन्दुबिम्बं दुरितनुदुदितं नित्यदाहं कदानु ॐ ॐ प्राचीनाचीर्णपुण्योच्चयचतुरतराचारतश्चारुचित्तान् अत्युच्चाम्रोचयन्तीं श्रुतिचितवचनाञ्छ्रावकांश्चोद्यचुञ्चोन् व्याख्यामुत्खातदुःखां चिरमुचितमहाचार्यचिन्तारतांस्ते चित्रां सच्छास्त्रकर्तश्चरणपरिचरान् श्रावयास्मांश्च किञ्चित् ॐ ॐ पीठे रत्नोपक्लप्ते रुचिररुचिमणिज्योतिषासन्निषण्णं ब्रह्माणं भाविनं त्वां ज्वलति निजपदे वैदिकाद्याहि विद्याः सेवन्ते मूर्तिमत्यः सुचरितचरितं भाति गन्धर्वगीतम् प्रत्येकं देव संसत्स्वपि तव भगवन्नर्ति तद्योऽवधूषु ॐ ॐ सानुक्रोशैररस्रं जनिमृतिनिरयाद्योर्मिमाला विलेऽस्मिन् संसाराब्धौ निमग्नाञ्छरणमशरणानिच्छतो वीक्ष्य जन्तून् युष्माभिः प्रार्थितः सञ्जलनिधिशयनः सत्यवत्यां महर्षेर्व्यक्तश्चिन्मात्रमूर्तिर्न खलु भगवतः प्राकृतो जातु देहः ॐ ॐ अस्तव्यस्तं समस्तश्रुतिगतमधमैरत्नपोगं यथान्धैरर्थं लोकोपकृत्ये गुणगणनिलयः सूत्रयामास कृत्स्नम् योऽसौ व्यासाभिधानस्तमहमहरहर्भक्तितस्त्वत्प्रसादात् सद्यो विद्योपलब्ध्यै गुरुतमम गुरुं देवदेवं नमामि ॐ ॐ आज्ञामन्यैरथार्यां शिरसि परिसरद्रश्मिकोटिरकोटौ कृष्णस्याक्लिष्टकर्म दधदनुसरणादर्थितो देवसङ्घैः भूमावागत्य भूमन्न सुकरमकरोर्ब्रह्मसूत्रस्य भाष्यं दुर्भाष्यं यस्य तस्योर्मणिमत उदितं वेदसद्युक्तिभिस्त्वम् ॐ ॐ भूत्वा क्षेत्रे विशुद्धे द्विजगणनिलये रूप्यपीठाभिधाने तत्रापि ब्रह्मजातिस्त्रिभुवनविशदे मध्यगेहाख्यगेहे पारिव्राज्याधिराजः पुनरपि बदरीं प्राप्य कृष्णं च नत्वा कृत्वा भाष्याणि सम्यग्व्यतनुत च भवान् भारतार्थप्रकाशम् ॐ ॐ वन्दे तन्त्वा सुपूर्णप्रमतिमनुदिना सेवितं देववृन्दैः वन्दे वन्दारुमीशे श्रियवुतनियतं श्रीमदानन्दतीर्थम् वन्दे मन्दाकिनी सत्सरिदमलजलासेकसाधिक्यसङ्गम् वन्देऽहं देवभक्त्या भवभयदहनं सज्जनान्मोदयन्तम् ॐ ॐ सुब्रह्मण्याख्यसूरेः सुत इति सुभृशं केशवानन्दतीर्थश्रीमत्पादाब्जभक्तः स्तुतिमकृतहरेर्वायुदेवस्य चास्य तत्पादार्चादरेण ग्रथितपदलसन्मालया त्वेतयाये सम्राध्यामूनमन्ति प्रततमतिगुणमुक्तिमेते व्रजन्ति ॐ ॐ पान्त्वस्मान्पुरुहूत वैरिबलवन्मातङ्गमाद्यत्खटा कुम्भोच्चाद्रविपाटनाधिकपटुप्रत्येकवज्रायिताः श्रीमत्कण्ठीरवास्य प्रततसुनखरादारितारातिदूरप्रध्वस्तध्वान्तशान्त प्रविततमनसा भाविता भूरिभागैः ॐ ॐ लक्ष्मीकान्तसमं ततोऽपि कलयन्नैवेशितुस्ते समम् पश्याम्युत्तमवस्तु दूरतरतोपास्तं रसो योऽष्टमः यद्रोषोत्करदक्षनेत्रकुटिलप्रान्तोत्थिताग्निस्फुरत् खद्योतोपमविस्फुलिङ्गभसिता ब्रह्मेडचक्रोत्कराः।
ॐ हरिः ॐ श्रीकृष्णार्पणमस्तु।